एवं वाच्य स कन्यार्थम् इति वो नोपदिश्यते भवत्प्रणीतमाचारम् आमनन्ति हि साधवः।
एवमिति कन्यार्थम् कन्याप्रदानाय सः हिमवान् एवं वाच्यः इति वह युष्मभ्यम् न उपदिश्यते कुतः हि यस्मात् साधवः विद्वांसः भवद्भिः प्रणीतम् स्मृतिरूपेण निबद्धम् आचारम् आमनन्ति उपदिशन्ति न हि स्वयम् उपदेष्टारः परोपदेशम् अपेक्षन्ते इत्यर्थः।
आर्याप्यरुन्धती तत्र व्यापारम् कर्तुमर्हति प्रायेणैवं विधे कार्ये पुरन्ध्रीणाम् प्रगल्भता।
आर्येति आर्या पूज्य अरुन्धती अपि तत्र विवाहकृत्ये व्यापारम् साहाय्यम् कर्तुम् अर्हति तथा हि प्रायेण प्राचुर्येण एवंविधे कार्ये विवाहादिकार्ये दुर्घटे इत्यर्थः। पुरन्ध्रीणाम् कुटुम्बिनीनाम् स्यात्तु कुटुम्बिनी पुरन्ध्री इत्यमरः। प्रगल्भता चातुर्यम् स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः।
तत्प्रयातौषधि प्रस्थम् सिद्धये हिमवत्पुरम् महाकोशी प्रपातेऽस्मिन् सङ्गमः पुनरेव नः।
तदिति तत् तस्मात् कारणात् ओषधिप्रस्थम् नाम हिमवत्पुरम् हिमवन्नगरम् सिद्धये कार्यसिद्ध्यर्थम् प्रयात गच्छत। अस्मिन् पुरोवर्तिनि महाकोशी नाम तत्रत्या काचिन्नदी तस्याः प्रपाते भृगौ एव सा नदी यत्र पतति तस्मिन्नित्यर्थः। प्रपातस्त्वतटो भृगुः इत्यमरः नः अस्माकम् पुनः सङ्गमः अस्त्विति शेषः। भवत्समागमम् प्रतिपालयन् अहम् इहैव निवत्स्यामि इत्यर्थः।
तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे जहुः परिग्रहव्रीडाम् प्राजापत्यास्तपस्विनः।
तस्मिन्निति संयमिनाम् योगिनाम् आद्ये तस्मिन् ईश्वरे परिणयोन्मुखे विवाहोत्सुके जाते सति प्रजापतेः इमे प्राजापत्याः ब्रह्मपुत्राः इत्यर्थः। तपस्विनः मुनयः परिग्रहैः पत्नीभिः व्रीडाम् गार्हस्थ्यनिमित्तामित्यर्थः। पत्नीपरिजनादानमूलशापाः परिग्रहाः इत्यमरः। जहुः तत्यजुः जहातेः लिटि रूपम् न हि समानगुणदोषेषु व्रीडागमः अस्तीति भावः।
ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् भगवानपि सम्प्राप्तः प्रथमोद्दिष्टमास्पदम्।
तत इति ततः अनन्तरम् मुनिमण्डलम् मुनिसमूहः परममित्युक्त्वा ओमित्युक्त्वा अनुमन्य इत्यर्थः। अव्ययमेतत् ओमेवम् परमम् मतम् इत्यमरः। प्रतस्थे भगवान् ईश्वरः अपि प्रथमोद्दिष्टम् पूर्वसङ्केतितम् आस्पदम् स्थानम् महाकोशी प्रपातम् सम्प्राप्तः
ते चाकाशमसिष्यामम् उत्पत्य परमर्षयः आसे दुरोषधिप्रस्थम् मनसा समरम् हसः
त इति मनसा समरम् हसः मनस्तुल्यवेगाः ते परमर्षयश्च पूर्वश्लोकोक्त ईश्वरसमुच्चयार्थः चकारः असिवत् श्यामम् नीलम् आकाशम् खम् प्रति उत्पत्य ओषधिप्रस्थम् हिमवत्पुरम् आसेदुः सद्यः प्रापुरित्यर्थः
अलकामतिवाह्यैव वसतिम् वसुसम्पदाम् स्वर्गाभिष्यन्दवमनम् कृत्वेवोपनिवेशितम्
अलकामिति वसुसम्पदाम् धनसमृद्धीनाम् वसतिम् स्थानम् अलकाम् कुबेरनगरीम् अतिवाह्य परिच्छिद्येति यावत् उपनिवेशितमिव स्थितम् तथा स्वर्गस्य अभिष्यन्दः अतिरेकः अतिरिक्तजन इति यावत् तस्य वमनम् निस्सारणम् कृत्वा उपनिवेशितमिव स्थितम् उभयत्रापि कौटिल्यः भूतपूर्वमभूतपूर्वम् वा जनपदम् परदेशापवादेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत् इति अलका अमरावत्यतिशयितसमृद्धिकम् इत्यर्थः
गङ्गास्रोतः परिक्षिप्तम् वप्रान्तर्ज्वलितौषधी बृहन्मणिशिलासालम् गुप्तावपि मनोहरम्
गङ्गेति गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तम् परिवेष्टितम् तैरेव सपरिखमित्यर्थः वप्रः चयः प्राकारचैत्यमिति यावत् स्याच्चयो वप्रमस्त्रियाम् इत्यमरः तस्य अन्तः मध्ये ज्वलिताः प्रकाशमानाः ओषधयः यस्य तत्तथोक्तम् ज्वलितौषधित्वात् रात्रिषु सञ्चारिणाम् दीपनिरपेक्षमित्यर्थः बृहत् विपुलः मणिशिलानाम् माणिक्यानाम् सालः प्राकारः यस्य तत्तथोक्तम् प्राकारो वर्णः सालः इत्यमरः अत एव गुप्तावपि संवरणेऽपि मनोहरम् अकृत्रिमदुर्गसंवरणमिति भावः
जितसिंहभयानागाः यत्राश्वाबिलयो नयः यक्षाः किम् पुरुषाः पौराः योषितो वनदेवताः
जितेति यत्र पुरे नागाः गजाः जितम् सिंहेभ्यः भयम् यैस्ते तथोक्ताः सिंहाधिकबलाः इत्यर्थः नाथस्तु पदम् तुषारश्रुतिधौतरक्तम् इत्येतत् विरोधभयात् वीतवीतभयाः इति पपाठ तथा नभेतव्यम् तत्र वनगजानाम् सिंहहतत्वाभिधानात् अत्र तु ओषधिप्रस्थगजानाम् हिमवन्महिम्ना सिंहातिरेकसम्भवेन अविरोधादिति वीतवीतभयाः इति पाठे वीतम् विगतम् वीतात् पादाङ्कुशकर्मभ्याम् भयम् येषाम् ते तथोक्ताः स्वभावविनीताः इत्यर्थः पादकर्मयुतम् प्रोक्तम् यातमङ्कुशवारणम् उभयम् वीतमाख्यातम् इति यादवः अश्वाः बिलयोनयः बिलसम्भवाः अन्यत्र तु न तथेति वैचित्र्यम् उक्तम् च अमृताद् बाष्पतो वह्नेः वेदेभ्योऽण्डाच्च गर्भतः साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता इति यक्षाः प्रसिद्धाः किम् पुरुषाः किन्नराश्च पौराः पुरजनाः वनदेवताः एव योषितः न तु मानुष्यः इत्यर्थः
शिखरासक्तमेघानाम् व्यज्यन्ते यत्र वेश्मनाम् अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः
शिखरेति यत्र पुरे शिखरेषु आसक्ताः मेघाः येषाम् तेषाम् वेश्मनाम् सम्बन्धिनः अनुगर्जितानि प्रतिगर्जितानि तैः सन्दिग्धाः मुरजस्वनाः करणैः तालव्यवस्थापकैः ताडनविशेषैः तदुक्तम् राजकन्दर्पेण नृत्यमादित्रगीतानाम् प्रयोगवशभेदिनाम् संस्थानम् ताडनम् रोधः करणानि प्रचक्षते इति व्यज्यन्ते स्फुटीक्रियन्ते
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः गृहयन्त्रपताकाश्रीः अपौरादरनिर्मिता
यत्रेति यत्र नगरे विलोलानि चञ्चलानि विटपेषु अंशुकानि येषाम् तैः कल्पद्रुमैः एव अपौरादरेण पौरादरम् विनैव निर्मिता अयत्नसिद्धा इत्यर्थः गृहेषु यानि यन्त्राणि आधारदारूनि तेषु पताकाः तासाम् श्रीः सम्भवतीति शेषः तत्र लम्बाम्बराः कल्पतरवः एव वैजयन्तीति सम्भाव्यन्ते इत्यर्थः
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु ज्योतिषाम् प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम्
यत्रेति यत्र पुरे नक्तम् रात्रौ स्फटिकहर्म्येषु आपानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषाम् नक्षत्राणाम् प्रतिबिम्बानि उपहारताम् पुष्पोपहारत्वम् मौक्तिकोपहारत्वम् वा प्राप्नुवन्ति
यत्रौषधिप्रकाशेन नक्तम् दर्शितसञ्चराः अनभिज्ञास्तमिस्राणाम् दुर्दिनेष्वभिसारिकाः
यत्रेति यत्र पुरे दुर्दिनेषु मेघाच्छन्नदिवसेषु नक्तम् ओषधीनाम् तृणज्योतिषाम् प्रकाशेन सञ्चरन्ते एभिरिति सञ्चराः पन्थानः गोचरसञ्चर इत्यादिना घप्रत्ययान्तः निपातः दर्शितसञ्चराः प्रकाशितमार्गाः अभिसारिकाः कान्तार्थिन्यः कान्तार्थिनी तु या याति सङ्केतम् साभिसारिका इत्यमरः तमिस्राणाम् तमसाम् कृद्योगात् कर्मणि षष्ठी अनभिज्ञाः तमांसि नाभिजानन्तीत्यर्थः
यौवनान्तं वयो यस्मिन् नान्तकः कुसुमायुधात् रतिखेदसमुत्पन्ना निद्रासंज्ञाविपर्ययः
यौवनान्तमिति यस्मिन् पुरे वयः यौवनान्तं यौवनावधिकम् सर्वेऽपि अजराः इत्यर्थः तथा कुसुमायुधात् कामात् अन्यः इति शेषः अन्तकः मृत्युः न अस्ति इति शेषः विरहिणाम् तादृक् दुःखोत्पादकत्वात् अन्तकत्वोपचारः कामम् विना मृत्युर्नास्तीत्यर्थः अत एव तत्कार्यभूतमरणाभाव इत्याशयेन आह रतीति रतिखेदसमुत्पन्ना निद्रा सुप्तिः एव संज्ञाविपर्ययः चेतनापगमः न तु दीर्घनिद्रारूपः इत्यर्थः अत्रत्याः सर्वे अजरामराः इति श्लोकतात्पर्यार्थः अन्तयति अन्तम् करोतीत्यन्तकः अन्तयतेः तत्करोतीति ण्यन्तात् ण्वुल् प्रत्ययः
भ्रूभेदिभिः सकम्पोष्ठैः ललिताङ्गुलितर्जनैः यत्र कोपैः कृता स्त्रीणाम् आप्रसादार्थिनः प्रियाः
भ्रूभेदिभिरिति यत्र पुरे प्रियाः युवानः भ्रूभेदिभिः भ्रूभङ्गवद्भिः सकम्पाः ओष्ठाः येषु तैः ललितानि अङ्गुलितर्जनानि येषु तैः स्त्रीणाम् कोपैः मानाख्यैः आप्रसादार्थिनः आप्रसादम् प्रसादपर्यन्तम् अर्थिनः याचकाः कृताः न तु शत्रुकोपैरिति भावः